योजेते सहस्रिणो रथा सस्तेभिरागहि नियुत्वान् सोमबीतये नियुत्वान् वाजवागह्ययम् शुक्रो वाजामिते गन्दादिसम्भतो गृहम् शुक्रस्याद्यगवासिर इन्द्रवायो नियुत्वतः आयातम् पिबतम् नरा अयम् वाहम् मित्रावरुणा सुतः सोमरुतावृधा मे दिहश्रुतम् हवम् राजानामनभिद्रुवा ध्रुवे सदस्योत्तमे सहस्रस्थून आसादे सा सम्राजा भृता सूती आदित्यादानो नस्पतीः सदेशे अनवह्परम् गोमदूषुणा सत्या स्वाहा वद्यादवश्विना भर्ते रुद्राद्रुवाह्यम् न यत्परोणान्तरादधर्णद्बृहण्वसु दुःसंसो मत्यो रिपुः तानावोढवश्विनालयम् विसङ्गसन्दृशम् धिष्ण्यावरिभोविदम् इन्द्रो अङ्गमहध्वयमभीषुतपयुच्यवत् सहे स्थिरो विचर्षणिः इन्द्रश्च मृळजादिनो ननः पश्चादघन्नासत् भद्रम् भवादिनः पुरः इन्द्रादाभ्यस्परिसर्वाभ्यो अभयम् करत् जयदा शत्रोर्विचर्षणिः विश्वे देवासागतशृणुतामजिमम् भवम् एनम् बहिर्निषेदत तीव्रो वधूमाङ्गयम् सुरहोत्रेषु मत्सरः एतम् पीबधकान्यम् इन्द्रज्येष्ठावरुद्गना देवाः सः पूषरादयः विश्वे मम श्रुताहवम् अम्बीतमे नदीतमे देवीतमे सरस्वती अप्रशस्तादीवस्मसि प्रशस्तिमम् वनस्कृधि त्वे विश्वा सरस्वति श्रुतायोंषि देव्याम् सुनहोत्रेण वत्स प्रजाम् देविजिग्भिनः इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति या दे मन्म घृत्समदारदावरि प्रिया देवेषु जुह्वति प्रेता यज्ञस्य शम्भुवा युवामिदा वृणीमहे अग्निम् च हव्यवाहनम् यावा नः पृथिवी इमाम् सिद्धमद्यति विस्मृतम् यज्ञम् देवेषु यच्छताम् आवाहमुपस्थमद्रुहा देवाश्रीदन्तु यज्ञियाः इहाद्य सोमबीतये